गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परब्रह्मा तस्मै श्रीगुरवे नमः वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देवा सर्वकार्येषु सर्वदा वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं श्रीगुरुभ्यो नमः हरि ओम् भगिनी
सहजावतु सहजौ भुनक्तु सह वीर्यकरवावहै तेजस्विनावधीतमस्तु
अस्तु तत्र न श्रूयते भगिनी सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः नमः सर्वेभ्यः अस्मिन् वर्गे स्वागतम् एकक्षणम् अस्तु प्रथमम् अनौन्स्मेण्ट्
भगिनी कनेक्शन् वास् नाट् देयर् ऐ डोंट् नो व्हाट् हैपेंड ऑल ऑफ अ
सडन दैट्स् ओके भगिनी चिन्ता नास्ति स्टार्टिङ्ग् फ्रोम् नेक्स्ट् फ्रैडे अवर् क्लास् विल् गो बेक् टु 9:10 क्षम्यताम् 10 AM ईस्टर्न् टैम् इन् द US इन् USA 7:30 PM इन् इण्डिया अगेन् एज़् इट् यूस् टु बि बिफोर् सो प्लीस् मेक् ए नोट्स् फ्रोम् स्टार्टिङ्ग् फ्रोम् नेक्स्ट् फ्रैडे we'll start with the new timings astu tadanantaram purvasmin varge vayam yatra tatra iti padayugalam api apicha tumun iti pratyayah etanayoho prayogau adhitavantah ekam katham patitavantah adya punah ekavaram katham patitva padachedam krutva arthan vyakaranam cha avagachamah tatapurvam अद्य त्वा अपि तुमुन् इति प्रत्ययौ स्वीकृत्य तयोः परिवर्तनं कृत्वा वाक्यानि रचयामः दट् इस् द न्यू लेसन् फार् टुडे इस् दट् वि आर् गोयिङ्ग् टु टेक् त्वा अपि तुमुन्
नमस्ते
नमस्ते भगिनि तयोः परिवर्तनं कुर्मः कृत्वा वाक्यानि रचयामः इट्स् सो वुल् माडिफै द सेण्टेन्स् and then present it in a different way by reversing tva and tumun astu
namaste bhagini
namaste bhagini kinchit punar smaranam bhavet tatra prathamam kim kurmah etat abhyasam krutavantah tatra ekam putam अधीतवन्तः अद्य रिमेनिङ्ग् अपि कुर्मः यानि शेषानि तानि अपि अस्तु तत्र के के सन्ति एकक्षणं गिरिजा भगिनी एकक्षणं तत्र त्रीणि श्रेणीं स्वीकृत्य पठतु भगिनी केन् यु रीड् द फस्ट् त्री
यस् भगिनि त्यजतु त्यक्तवान् त्यक्तवती त्यक्षति त्यक्त्वा त्यक्तु लीव् पश्यति पश्यतु दृष्ट्वा दृष्टवती दक्ष्यति
द्रक्ष्यति
द्रक्ष्यति दृष्ट्वा दृष्टं दृष्टुं सी
द्रष्टुं
दृष्टुं
द्रष्टुं तत्र
उपविशति
एकक्षणं कुत्रचित् द्रु इति भवति कुत्रचित् द्रा इति भवति धातोः रूपं अतः तत्र तत्र द्रक्ष्यति इत्यस्मिन् द्रा, द्रष्टुम् इत्यस्मिन् द्रा इति भवति, नो चेत् दृष्टवान् दृष्ट्वा इति भवति, पश्यतु इति क्रियापदे भवति. तत्र दृश्यति, हा दृश्यति धातुः एव, ओ क्षम्यतां या अग्रे गतवती अहं, दृश्य इति धातुः क्रियापदे पश्य इति भवति, पश्यतु पश्यति इति भवति. अग्रे
उपविशति, उपविशतु, उपविष्टवान्, उपविष्टवती, उपवेक्षयति, उपविश्य, उपवेष्टुं, सिट्स्.
तावत्पर्यन्तं भगिनि. तत्र विश् इति धातुः, उप इति उपसर्गः, अतः तत्र तत्र त्वा अस्ति वा लेबन्त अस्ति वा भगिनि? तत्र
लेबन्त अस्ति.
लेबन्त किमर्थमिति जानाति एव भवती, किन्तु वदतु एकवारं.
वाट् यु टेल् फार् देट् उपसर्ग,
उपसर्गः अस्ति चेत् लेबन्तरूपं भवति,
लेबन्तरूपं
अथवा लेप् प्रत्ययः,
लेप् प्रत्ययः अस्ति.
सम्यक् सम्यक्. अस्तु अग्रे पदानि बृन्दा भगिनी पठति वा?
आं भगिनि. ददाति, ददातु, दत्तवान्, दत्तवती, दास्यति, दत्त्वा, दातुं, गिव्स्. मूलरूप
धातुः सम्यक्.
पृच्छति, पृच्छतु, पृष्टवान्, पृष्टवती, रक्ष्यति, पृष्ट्वा, प्रष्टुम्.
तत्रापि कुत्रचित् प्र इति भवति, कुत्रचित् प्रा इति भवति.
धातु पृच्छ धातु,
प्रच् वस्तुतः धातुः प्रच् इति अस्ति.
प्रच्
तदनन्तरं तत्र रेफस्य स्थाने ऋकार पृच् इति भवति.
क्रीणाति, क्रीणातु, क्रीतवान्, क्रीतवती, प्रेष्यति, क्रीत्वा, क्रेतुं, बैस्.
तत्र क्रीधातुः सम्यक्. तत्र मध्ये नकारः आगच्छति, नकारः अनन्तरं णत्वं भवति, णकारः भवति.
रेपा, रेपा आगच्छति.
तत्र तत्र प्रत्यये नकारः आगच्छति, तदनन्तरं णत्वं भवति. किन्तु यथा भवती उक्तवती, रेफस्य कारणेन णत्वं भवति. सम्यक् अस्तु. अपि च तत्र का इति बाधा नास्ति, इट् डस् नाट् अपोस् द णत्वं फ्रम् हेपनिङ्ग्. कवर्गीय, पवर्गीय इति दृष्टवन्तः, अतः भवति एव तत्र. अस्तु सम्यक्. अग्रे ज्योति भगिनी करोति वा?
क्रीणाति
तद् अभवत्, तद् अभवत्,
सोरि सोरि, जानाति, जानाति ज्ञाधातु, जानाति, जानातु, ज्ञातवान्, ज्ञातवती, ज्ञास्यति, ज्ञात्वा, ज्ञातुं, नोस्.
यथा भवती उक्तवती एव, ज्ञा इति धातुः, तत्र कुत्रचित् जा इति भवति तस्य रूपम्. अतः जानाति, जानातु इति क्रियापदे अनन्तरं ज्ञा एव भवति सर्वत्र, किल तत्र.
निद्राति धातु, धातु धातु
द्रा अस्ति,
किम् अस्ति,
द्राधातु,
नि उपसर्ग द्राधातु
सम्यक्.
सो निद्राति निद्रातु निद्राणवान् निद्राणवति निद्रास्यति निद्राय निद्रातुं स्लीप्
इति भवति.
देन् कृ धातु करोति करोतु कृतवान् कृतवती करिष्यति कृत्वा कर्तुं डज़.
सम्यक्. केवलम् एकं तत्र वक्तुम् इच्छामि. नी इति दीर्घनी नास्ति. तत्र दीर्घनी भवति चेत् धातोः रूपं भवति. नी इति धातुः अस्ति. तत्र तु ह्रस्व नी एव.
निद्राति.
अतः सम्यक् भगिनि. अग्रे स्वीकरोति इति नीत्वा तत्र रमेश महोदय करोति वा?
आं भगिनि. स्वीकरोति, स्वीकरोतु, स्वीकृतवान्, स्वीकृतवती, स्वीकरिष्यति, स्वीकृत्य, स्वीकर्तुं, कृतातु.
हा, कृधातुः अपि च तत्र स्वी इति स्वीकृतं. स्वी इति उपसर्ग इव भवति. अतः तत्र किं भवति, स्वान्त न भवति, किन्तु लेप् प्रत्ययः भवति. स्वीकृत्य इति न तु स्वीकृत्वा, स्वीकृत्य एव भवति तत्र. अग्रे महोदय.
शृणोति, शृणोतु, श्रुत्वान्, श्रुतवान्, श्रुतवती, श्रोष्यति, श्रुत्वा, श्रोतुं, हियर्स्.
तत्र श्रु इति, हा, श्रु इति धातुः यत्र श्रुत्वा अस्ति तादृशं धातुरूपम् अस्ति, किन्तु श्रु इति एतत् रूपं भवति तत्र, किञ्चित् कार्यं भवति. अतः द्वे रूप, तत्र अपि भिन्नरूपाणि गृह्णाति.
अस्ति वा
तत्र विकरणप्रत्ययस्य कारणेन आगच्छति महोदय. तत्र णत्वं भवति, णत्वं तु भवति, किन्तु तत्र विकरणप्रत्ययस्य नकारः. श्रु इति धातोः रूपे नकारः नास्ति, श्रु इति एव अस्ति.
गृह्णाति, गृह्णातु, गृहीतवान्, गृहीतवती, ग्रहिष्यति, ग्राहित्वा, ग्राहितुं, होल्स्.
तत्र गृहीत्वा अपि ग्रहीतुम् इति अस्ति, ग्रहीतुम् इति अस्ति. ग्रा दीर्घ नास्ति.
ग्रहीतुं
पुनरेकवारं पठतु महोदय. गृह्णाति इति आरभ्य.
गृह्णातु, गृहीतवान्, गृहीतवती, ग्रहिष्यति, गृहीत्वा, ग्रहीतुं.
ग्रहीतुं तत्रापि पश्यन्तु, तत्र ऋकारः, किन्तु अत्र तु रेपः एव. ग्रहीष्यति, ग्रहीतुं. धातोः रूपं जानाति वा? ग्रह् इति
धातुः.
सम्यक्. अत्र तुलसी भगिनी कर्तुम् इच्छति वा?
भगिनि
अग्रे करोतु भगिनि. रोदिति,
रोदिति धातु
रुद्,
रुद्. ओके, थैंक यू. रोदितु, रुदित्वान्, रुदित्वती, रोदिष्यति, रुदित्वा, रोदितुं, क्राइज.
तत्रापि कुत्रचित् रो इति भवति, कुत्रचित् रुदेव तिष्ठति.
भगिनी वै इति
अग्रे तत्र प्रत्ययाः आगच्छन्ति, सन्धिकार्याणि भवति भगिनी. तत्र अङ्गकार्यम् इति वदामः एक्चुअलि. सो परिवर्तनं भवति तत्र, डिपेण्डिङ्ग् आन् वाट् प्रत्यय कम्स् आफ्टर् दट्. देर् आर् सूत्रास् अण्ड् मेनि रीसन्स् फार् इट् टु हेपन्.
थेङ्क् यू.
व्याकरणे, व्याकरणे आगच्छति. अस्तु.
रोतु शक्तवान् शक्तवती शक्षति शक्ष्यत्या
शक्त्वा
शक्षत्वा
शक्त्वा शक्त्वा
शक्त्वा शक्तुम् इस् एबल् धातु इस् वाट्
शक्येव धातुः
पूजयति पूजयतु पूजितवान् पूजितवती
तत्र पुनः पूजितवान् पूजितवती
पूजितवान् पूजितवती पूजयिष्यति
पूजयिष्यति
पूजयिष्यति पूजयित्वा पूजयितुं
वर्षिप् सम्यक् अग्रे मञ्जुला भगिनी करोति वा
आं भगिनि
पूजिति एव मन्ये तत्र भगिनि
धन्यवादः
पूज हा तत्र पूजयित्वा पूजयितुं पूजय तत्र निजन्तरूपं पूजयति इति अतः तत्र पूजा इति पश्यामः किन्तु पूजिते एव धातुः इति मन्ये करोतु भगिनि
प्रेषयति प्रेष्यतु प्रेषितवान् प्रेषितवती प्रेषयिष्यति प्रेषयित्वा प्रेषयितुं सेन्स् प्रेष् धातु
आम्
प्रक्षालयति प्रक्षालयतु प्रक्षालितवान् प्रक्षालितवती प्रक्षालयिष्यति प्रक्षाल्य प्रक्षालयितुं वाशस् धातु प्रक्ष्य
तत्र प्रा इति उपसर्ग अतः तत्र प्रक्षाल्य इति लेप् भवति क्षाल् इति धातुः किन्तु तत्र प्रेष् इत्यस्य तु तत्र प्रेषिति एव प्रा इति अस्ति चेत् तत् उपसर्गः क्षालयति इत्यस्य प्रक्षालयति इति भवति सो उपसर्गसहितरूपं तत्र तथा एव भवति तत् पदं प्रक्षालयति इति एव भवति अपि च
स्थापयति स्थापयतु स्थापितवान् स्थापितवती स्थापयिष्यति स्थापयित्वा स्थापयितुं प्लेसस्
धातुः जानाति वा
स्थाप
स्थायव धातुः स्थाधातु तत्र पकारः आगच्छति तत्रापि कार्याणि भवन्ति अङ्गनिर्माणविषये स्थापयति इति भवति स्था इति धातुः अस्तु स्थाधातुतः एव तिष्ठति इति अपि भवति तत्र निजन्तरूपम् इति कृत्वा स्थापयति नो चेत् तिष्ठति इति अपि स्थाधातुः एव तत्र क्रियापदस्य भिन्नरूपम् न अन्य कोऽपि पठेत् तत्र अग्रे रवीन्द्रमहोदय पठति वा
भगिनि सूच इति धातुः सूचयति इति क्रियापदं सूचयति सूचयतु सूचितवान् सूचितवती सूचयिष्यति सूचयित्वा सूचयितुम् इण्डिकेट्स् तर्ज इति धातुः तर्जयति इति क्रियापदं तर्जयति तर्जयतु तर्जितवान् तर्जितवती तर्जयिष्यति तर्जयित्वा तर्जयितुम् स्कोर्स्
धातुः तर्जिति एव
उपसर्गप्रयुज्य आह्वयति इति क्रियापदम्
आह्वयति
आह्वयति इति क्रियापदम् आह्वयति आह्वयतु आहूतवान् आहूतवती आह्वास्यति आहूय आह्वातुम् इन्वैट्
तत्र वयं दृष्टवन्तः इन्वैट् अपि इन्वैट्स् अपि भवति किन्तु जस्ट् कालिङ्ग् समोन् आल्सो इस् अपि तत्र धातुः कः इति स्मरति वा ह्वे इति धातुः ह्वे तत्र हकार वकार अपि तदनन्तरम् एकार भवति ह्वे इति किन्तु ह्वे इति धातुः उपसर्गसहित एव रूपाणि भवन्ति तत्र आ इति उपसर्गः अतः तत्र आहु किं महोदय
आहूयति णिजन्तरूपं
णिजन्त तत्र णिजन्तरूपं हा किन्तु स्वार्थे णिच् स्वार्थे णिच् तत्र ते सर्वाणि तत्र बहूनि णिजन्तरूपाणि भवन्ति आह्वयति सूचयति स्थापयति प्रक्षालयति किन्तु बहुतेक ते सर्वाणि स्वार्थे एव स्वस्य कृते एव सम्यक् सम्यक्
धन्यवादः
अस्तु अग्रे तत्र किं दृष्टवन्तः यत्र तत्र अपि च तुमुन् इति तत्र उमा भगिनी यत्र तत्र इति उपयुज्य एकं वाक्यं करोति वा किमपि सरलवाक्यं यत्र किमपि अस्ति तत्र अन्यत् किमपि भवति अथवा अस्ति यत्र माता अस्ति तत्र पुत्री भवति किल
यत्र हिमालय तत्र शिवम् अस्ति
हा तत्र शिवः अस्ति तत्र यत्र अस्ति तत्र भवति अस्ति इति यत्र हिमालयः अस्ति तत्र शिवः अस्ति इति वक्तुं शक्नुमः अस्तु हा अपि च अन्य कोऽपि तत्र शैलिनी भगिनी एकं वाक्यं करोति वा यत्र तत्र
यत्र यत्र भगवान् अस्ति तत्र
तत्र भगवान् यत्र नास्ति इति अपि इति भवति यत्र भक्ताः सन्ति तत्र भगवान् अस्ति इति
भगवान् अस्ति
वक्तुं शक्नुमः इति मन्ये हा यत्र नास्ति इति कुत्र नास्ति इति
कुत्र नास्ति ओके
कुत्र नास्ति इति तत्र यत्र इति न भवति यत्र भगवान् नास्ति इति न भवति एव इति वक्तुं
यत्र यत्र धर्मः तत्र जयः अस्ति न विजयः अस्ति
न सम्यक् सम्यक् यत्र धर्मः तत्र विजयः भवति
तत्र विजयः भवति
सम्यक् सम्यक् भगिनि अस्तु अपि च तत्र तुमुन् अधुना तुमुन् इत्यस्य उपयोगं कृत्वा वर्षा भगिनी करोति वा
आं भगिनि वट् ऐ हाव् टु डु तुमुन्
तुमुन् इत्यस्य प्रयोगः वाक्ये
डु ऐ हाव् टु यूस् यत्र तत्र भगिनी
न न न तुमुन् एव
ओन्लि तुमुन् एनि तुमुन्
किमपि सरलवाक्यं किमपि उदाहरणार्थं कर्तुं द्रष्टुम् अहं चलनचित्रं द्रष्टुं गतवती, द्रष्टुं गच्छामि, गमिष्यामि इति. सर्वे तु
भगिनि अस्ति भगिनि. अहं पाठं लेखितुम् इच्छामि.
सम्यक्. अपि च
अस्तु भगिनि, पाठं लेखितुम् अहं
सम्यक् एव अटम् अहं पाठं लेखितुम् इच्छामि.
लेखितुम् इच्छामि
तदेव, लेखितुम् इच्छामि, लेखितुमेव. तत्र किञ्चित् भ्रमः भवति मम अपि, किन्तु लेखितुमेव. अस्तु, तर्हि अग्रे के न कृतवन्तः तत्र, राजलक्ष्मी भगिनी अस्ति वा अद्य? नास्ति किल. राधा भगिनी करोति वा?
यस् मेम्. सीता पठितुं विद्यालयं गच्छति.
सम्यक्.
इस् दट् ओके?
सम्यक्. अन्यत् एकं करोति वा?
वन् मोर्. या अहं कार्यं कर्तुं मम मित्रेण गृहं गच्छामि.
न, तत्र मित्रेण इति विभक्ति किम्?
तृतीया.
तत्र यथा मित्रेण इति भवति, तत्र एकं पदं भवति मित्रेण सह. मित्रेण सह
गृहं गच्छामि.
सम्यक्, वाक्यं तु सम्यक् तदेव. सः इति भवनीयं यत्र मित्रेण इति भवति. सम्यक् भगिनि. अस्तु, वन् मोर् इति तत्र ऐश्वर्या भगिनी एकं करोति वा? भगिनी अस्ति वा? न श्रूयते भगिनि. इफ् यु आर् स्पीकिङ्ग् वि आर् नाट् हियरिङ्ग् यु. भवती लाग् औट् कृत्वा लागिन् करोतु भगिनि. अस्तु, तर्हि तुलसी भगिनी एकं करोतु.
आं भगिनि, अहं पुस्तकं क्रीणातुं
न आपणं
गच्छामि.
तत्र क्रेतुम् इति अस्ति किल.
ओके, क्रेतुं
पुनः वदतु.
अहं पुस्तकं क्रेतुम् आपणं गच्छामि.
सम्यक्, क्रेतुं गच्छामि. अस्तु, सम्यक्. तावत् या सर्वे अवगन्तवन्तः इति जानामि. किञ्चित् पुनस्मरणमेव. तर्हि अग्रे किं कुर्मः अद्य इति चेत्, एतानि विशेषरूपाणि, विशिष्टरूपाणि इति, उपविशति, उपवेष्टुम्, उत्तिष्ठति, उत्थातुम्, अस्ति, भवति, भवितुम्, क्रीणाति, क्रेतुम्, क्रीणाति, ग्रहीतुं दृष्टवन्तः, पिबति, पातुम्, आह्वयति दृष्टवन्तः, आह्वातुम्, अपि च मिलति, मेलितुम् इति. अस्तु, अग्रे यथा पूर्वोक्तं परिवर्तन अभ्यासः. अस्तु, पश्यति द्रष्टुं, तुमुन् द्रष्टुम् इति अस्ति अत्र, अस्ति वा? नास्ति. पश्यति इति द्रष्टुं, द्रष्टुम् इति भवति. दृष्टवन्तः किल अधुना, पठितवन्तः. पश्यति तत्र किं द्रष्टुं, दृष्टवती, दृष्टवान् इति भिन्नानि रूपाणि.
अधुना दिद्रक्षते दिद्रक्षा
द्रक्ष्यति इति भविष्यत्काले भवति. अत्र आम् आं भगिनि राधा भगिनी पठितुम् इच्छति वा इच्छति वा परिवर्तन शीर्षिकाम् एकवारं पठतु तदनन्तरं किमपि तत्र उदाहरणं दत्तं तत् पठतु. परिवर्तनाभ्यासः
कृत्वातः तुमुन्
त्वातः तुमुन् इति त्वातः इत्युक्ते किं तत्र त्वातः इत्युक्ते तत्र तः इति पञ्चमी विभक्ति भवति फ्रम् दट् इति भवति तत्र फ्रम् त्वातः त्वा तुमुन् करणीयम् इति. अग्रे उदाहरणं पठतु.
कपिलः ग्रन्थालयं गत्वा ग्रन्थं पठति.
अधुना
ओके इट् केन् बि चेञ्ज् टु कपिलः ग्रन्थालयं
न न तत्र दत्तमस्ति तदेव पठतु. नेक्स्ट् सेण्टेन्स् इस् द परिवर्तनं.
कपिलः ग्रन्थं पठितु ग्रन्थालयं गच्छति.
हा ग्रन्थं पठितुं तत्र पश्यतु तत्र प्रथमवाक्ये पठति इति अस्ति.
यस् यस्
तत्र तत् तदेव पदं तुमुन् भवति.
तुमुन् फार्म् आफ् पठति.
सम्यक् तुमुन् फार्म्. अपि च द्वितीयवाक्ये गच्छति इति क्रियापदं प्रथमवाक्ये त्वान्तपदम् अभवत्. तथा एव अग्रे अपि कुर्मः. अधुना क्रियापदं किम् इति पश्यामः. तस्य तुमुन् अथवा त्वा भवति एतेषु भिन्नवाक्येषु. अस्तु वि आर् डूङ्ग् परिवर्तनं. हा गत्वा द बिकास् द सेण्टेन्स् इस् डिफ़्रेण्ट्. तत्र अर्थः कः वदतु भवती वदतु. कपिलः ग्रन्थालयं गत्वा ग्रन्थं पठति इत्युक्ते
हेविङ्ग् गान् टु द ग्रन्थं ग्रन्थालयं नो ही गोस् टु द ग्रन्थालयं टु रीड् ग्रन्थं.
वाट् यु सेड् फस्ट् वास् करेक्ट्. कपिलः वाट् यु सेड् फस्ट् वास् करेक्ट्. कपिलः ग्रन्थालयं
गत्वा ग्रन्थं पठति
सम्यक् पठति. अधुना द्वितीयवाक्ये
कपिलः ग्रन्थं पठितुं ग्रन्थालयं गच्छति. ग्रन्थालयं टु रीड् ग्रन्थं.
हा तत्र कारणं किम् इति सः ग्रन्थालयं गत्वा ग्रन्थं पठति इति तत्र किं कृतवान् इति द्वितीयवाक्ये किमर्थं गतवान् इति तदा तथा एव एकं वाक्यम् एकम् अभ्यासं करोतु तत्र भगिनि.
ओके द फस्ट् वन् ओके गौरी
तत्र तत्रापि एतेन इति अस्ति पठतु तदपि.
एतेन क्रमेण अन्यानि वाक्यानि परिवर्तयतु.
परिवर्तनं परिवर्तयतु इति
परिवर्तयतु इट् इस् सम्बोधन रिक्वेस्ट् आर्डर्
लोट् लकार
लोट् लकार
सम्बोधन न तत्र क्रियापदम् अस्ति किल.
ओके
लोट् लकारे आज्ञा अथवा प्रार्थना भवति.
गौरी सखी गृहं गत्वा पुस्तकम् आनयति.
तत्र फस्ट् फस्ट् अर्थः कः इति वदतु.
हेविङ्ग् गान् टु सखीस् हौस् शी रीड्स् अ बुक्
न न रीड्स् न क्रियापदं किमस्ति तत्र
आनयति.
आनयति इत्युक्ते
ओ ऐ फर्गाट् द मीनिङ्ग् आफ् आनयति.
ब्रिङ्ग्स्
ब्रिङ्ग्स् ब्रिङ्ग्स्
ब्रिङ्ग्स् नयति इति क्रियापदं किल नयति इति
नयति
आनयति तत्र हा सम्यक् तत्र गच्छति आगच्छति गच्छति इत्युक्ते गोस् आगच्छति इत्युक्ते रिटर्न्स् नयति क्यारीस् आनयति ब्रिङ्क्स्
ब्रिङ्क्स् आपोसिट् ओके
अधुना परिवर्तनं करोतु
परिवर्तनं गौरी पुस्तकं आनयितुं सखीगृहं गच्छति गच्छति
गच्छति सम्यक् केवलम् एकं तत्र आनेतुम् इति अत्र अस्ति तत्र तत्र आनयितुम् आनेतुं पुनः वदतु
गौरी पुस्तकम् आनेयितुम्
आनेतुं
आनेतुं सखीगृहं गच्छति
गच्छति तावदेव सम्यक् सखी गृहं गच्छति तत्र सम्यक् भगिनि अस्तु तत्र तत्सु महोदय करोति वा अग्रे
Yes, thank you. This is for me, being the artist.
Oh, okay. Ataha.
Chitrakara, chitrakaraha, chitram likitva danam sampadayati. The artist having drawn the, or write the pictures, he earns the money. Chitrakaha chitrakaraha danam sampadayitum likhati. So the
samyak tadeva
he writes the picture. Yeah.
Chitrakaraha dhanam sampadayitum chitram likhati. Samyak mohodaya. Tavadeva asti tatra. Tatra pashyantu likhitva. लिखित्वा इत्युक्ते रैटिङ्ग् अपि अस्ति चित्रस्य कृते अपि लिखित्वा एव भवति देर् इस् नो सेपरेट् डिफ्रेण्ट् वर्ड् फार् इट् फार् पेण्टिङ्ग् इति सेम् वर्ड् लिखति इति एव भवति तत्र अस्तु अग्रे शैलिनी भगिनी करोति वा
भगिनि बालिका सम्यक् पठित्वा उत्तीर्णा भवति गर्ल् नैस्लि शी रीड्स् एण्ड् देन् शी इस् गेटिङ्ग् गुड् मार्क्स् उत्तीर्णा शीस् बालिका उत्तीर्णयित्वा
न न तत्र वदतु कस्य पदस्य तुमुन् भवति
तुमुन् पठित्वा
तत्र पठित्वा इति त्वा अस्ति पठित्वा इति त्वा पदम् अधुना तुमुन् कस्य पदस्य भवति सो
भवति 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 बालिका उत्तीर्ण भवतुं
भवितुं
भवितुं सम्यक् पठति
सम्यक् तदेव तत्र सर्वत्र स्मरन्तु क्रियापदम् इति भवति अस्तु सम्यक्
पासिङ्ग् औट् नाट् टेकिङ्ग् गेटिङ्ग् मोर् मार्क्स्
हा अस्तु महोदय पासिङ्ग् परीक्षायाः परीक्षायां गेटिङ्ग् मोर् मार्क्स् इति उक्तवती वा अस्तु अस्तु हा उत्तीर्णा इत्युक्ते पासिङ्ग् इति अस्तु महोदय स्वर्णा भगिनी किम् अस्ति प्रश्नः अस्ति वा स्वर्णा भगिनी
न प्रश्नं नास्ति भगिनि किञ्चिदपि उत्तरं दातुम् इच्छामि
अस्तु अस्तु पृच्छामि भगिनि चिन्ता नास्ति पृच्छामि एव अस्तु अस्तु, भवती एव करोतु अग्रे.
एषः स्नानं कृत्वा शुद्धः भवति. एषः शुद्धः भवितुं स्नानं करोति.
तावदेव अस्ति. पुनः तत्र भवति इति आगतम्, अतः तस्य पदस्य भवितुम् इति तुमुन् भवति. तादृशमेव अग्रे अग्रे अपि कुर्मः. तत्र हा सर्वे कर्तुं शक्नुवन्ति. अस्तु भगिनि, पुनः केन अत्र ऐश्वर्या भगिनी प्रथमवाक्यं करोति वा? पुनः तत्र न श्रूयते भगिनी, किमर्थं न जानामि. पुनः एकवारं ट्रै करोतु, प्रयत्नं करोतु, लाग् औट् लाग् लागिन् कृत्वा. न श्रूयते. अस्तु, वृन्दा भगिनी करोति वा?
आं भगिनि. सम्यक् विचारं कृत्वा कार्यं करोतु. सम्यक् कार्यं कर्तुं विचारं करोतु.
हा, तदपि भवति. अथवा कार्यं कर्तुं सम्यक् विचारं करोतु इति, किमपि कार्यं कर्तुं. हा, तदपि भवति.
ओके,
द्वे अपि साधु एव इति मन्ये तत्र. अस्तु, सम्यक्. गिरिजा भगिनी करोति वा?
यस् भगिनि. सा पत्रालयं गत्वा पत्रं प्रेषयति. सा पत्रालयं पत्रं प्रेषयतु. पत्रालयं गच्छति.
सम्यक्. पुनः वदतु.
सा पत्रं प्रेषयतु. पत्रालयं गच्छति.
तदेव, सम्यक्. ऐश्वर्या भगिनी वदतु अधुना.
भगिनी, वाट् इस् द मीनिङ्ग् आफ् तदेव?
ओ, तदेव इत्युक्ते तत् एव. तत् एव, या, दट् इस् इट्. दट् इस् इट् इति अर्थे. दट्स् आल्, दट्स् आल् इति. वारं वारं वदामि किल तदेव इति.
भगिनी, प्रेषयितुं प्रेषितुं प्रेषयितुं सम्यक् अस्ति न?
प्रेषयितुमेव. अस्तु, ऐश्वर्या भगिनी प्रयत्नं करोतु अधुना, वदतु किमपि. न श्रूयते एव भगिनी. अस्तु अस्तु, अग्रे देवनाथ महोदय करोति वा?
इदानीं भगिनि.
इदानीं श्रूयते. एकक्षणं भगिनि, लेट् देवनाथ महोदय do this one, then I'll ask you.
Usha lokayana sthanakam gatva sankhyaha swagatam karoti.
Tatra sankhyaha nasti mahodaya.
Sakhyaha, sorry.
Sakhyaha,
that means friend. Sakhya, friend. Usha lokayana sthanakam gatva सख्याः स्वागतं करोति. उषा वेण्ट् टु दि वेण्ट् टु द बस् स्टाण्ड् टु रिसीव् हर् फ्रेण्ड्. ओके, दट्स् द मीनिङ्ग् अप्राक्सिमेट्लि.
हा, तदेव.
या, उषा स्वागतं कर्तुं लोकयानस्थानकं गच्छति.
हा तत्र कस्य स्वागतम् इति अपि प्रश्नः उदेति किल, अतः उषा
सख्याः, उषा सख्याः स्वागतं कर्तुं लोकयानस्थानकं गच्छति.
गच्छति तदेव. तत्र सख्याः इति कस्य पदस्य किं विभक्तिः, का विभक्तिः?
सख्याः षष्ठी.
हा तत्र प्रथमविभक्ति किं?
सखी.
सखी इति दीर्घैकारान्तपदं. तत्र वस्तुतः सखी इति प्रथमविभक्तौ सखीः इति भवति, किन्तु नदीवत् भवति इति दृष्टं मया. सखी सख्याः, नदी नद्याः इति स्त्रीलिङ्गपदम्. अस्तु महोदय.
भगिनी, दट्स् वै यु शुड् नाट् थिङ्क् आफ् दि सेण्टेन्स् इन् इङ्ग्लिश्. We should try to use our own mother tongue where, because Sakhi in English will also say to invite our friend or to receive our friend. So the Vibhakti goes for a toss, isn't it, in English?
That's why I said Sapra.
Yeah, yeah, correct, correct.
Mm-hmm.
Yeah.
Yeah, the, well, on that note, Mohodaya, yes. Vayam sarve sanskrutena vadamaha. तर्हि सर्वे प्रयत्नम् आरम्भं कुर्वन्तु. यदा विभक्तिवल्लरी कुर्मः तदा तु संस्कृतेन एव वदनीयं सर्वैः. अस्तु
अस्तु
अस्तु, भवान् एव करोतु अधुना संस्कृतेन.
नेक्स्ट् वन् महाभारतं पठित्वा अहम् अनेकाः कथाः जानामि. महाभारतं पठित्वा अहम् अनेकाः कथाः जानामि.
हा तत्र कथाः इति विभक्ति किं महोदय?
कथाः 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 रामः दट्स् द्वितीया विभक्ति.
द्वितीया विभक्ति
बहुवचनं.
बहुवचनं सम्यक्. किमर्थं तत्र कथा इति?
कथा मीनि कथा मीन् स्टोरि.
स्त्रीलिङ्ग. स्त्रीलिङ्ग.
स्त्रीलिङ्ग
कथा.
स्त्रीलिङ्गे
रामः.
न न
न स्त्रीलिङ्ग.
ततः अतः पृष्टवती. तत्र कथाः इति स्त्रीलिङ्गे दीर्घ आकारान्त स्त्रीलिङ्गे भवति तादृशं. अतः तत्र कथा इति कथाः इति एव भवति रूपं. प्रथमविभक्तौ अपि बहुवचने कथाः, द्वितीया अपि कथाः. वाक्यं दृष्ट्वा एव तत्र किमर्थं द्वितीया विभक्तिः? तत्र कर्मपदम् इष्टं. जानामि इति अनेकाः कथाः जानामि इति, अतः तत्र किं जानामि इत्यस्य उत्तरं कथाः जानामि इति भवति. कर्मपदं भवनीयं तत्र इति. हा अधुना वदतु स्वस्य वाक्ये, वदतु तत् वाक्यं. से इट् इन् युर् ओन् वे.
युर् ओन् वे. ओके. महाभारतं पठित्वा अनेकाः कथाः जानामि. नौ देट् ऐ हव् रेड् दिस्
संस्कृतेन. इत्युक्ते उदाहरणार्थम् अहं महाभारतं पठितवान्
तत्कारणेन अनेकाः कथाः ज्ञातम् और् जानामि.
जानामि अथवा ज्ञातं मया, तदपि सम्यक्. सम्यक् महोदय. तत्कारणेन इति उक्तवान् अथवा अतः इत्युक्ते देर् फोर् अहं महाभारतं पठितवान् अधीतवान् अतः अथवा तत्कारणेन अनेकाः कथाः ज्ञातं मया इति. सम्यक् सम्यक् प्रयोगः. अस्तु अस्तु अग्रे ज्योति भगिनी करोति वा?
Bhagini, excuse me. Can this be repeated? Mahabharatam patitva aham anekaah kathaah janami.
I also not understood.
अहम् अनेका कथा जानितुं महाभारतं
ज्ञातुं
अस्तु अस्तु क्षम्यतां क्षम्यताम् अहं तु विस्मृतवती एव करोतु महोदय
अनेकाः कथाः ज्ञातुम् अहं महाभारतं पठितवान्
एकक्षणं महोदय भवान् करोतु
अहं
किम्
अनेकाः कथाः ज्ञातुं महाभारतं पठितवान्
पठितवान् एव अपठम् इति अपि भवति यदि क्रियापदस्य उपयोगं कर्तुम् इच्छति चेत् अपठम् इति अपि भवति
मां प्रश्न अहम् अस्ति किल
अहमपि अहमपि अस्ति तत् दृष्टवती किन्तु अपठम् इति भवति किल अहम् इत्यस्य
ओके सो द पठामि केनाट् कम् हियर्
नाट् बोथ् आफ् देम्
तत्र अस्तु महाभारतं पठित्वा अहम् अनेकाः कथाः जानामि अहम् अनेकाः कथाः ज्ञातुं महाभारतं पठितवती अपठं द्वे अपि अहं तत्र अन्ते अपि आगन्तुं शक्नोति अत्र महोदय भवान् विस्मृतवान् किन्तु अनेकाः कथाः ज्ञातुं महाभारतम् अपठम् अहम् इति तत्र इम्प्लिसिट् अपि भवति अहम् इति कर्ता अपठम् इति आगच्छति इति कृत्वा पठितवान् इति आगच्छति इति कृत्वा न अस्ति चेदपि सम्यक् एव तदपि एकः अंशः अस्ति तत्र दृष्टवन्तः किल तत्र कथां यथा पठामः यदा पठामः तत्र अस्ति अथवा अहं यूजुवलि स्किप्ड् क्रियापदमेव सूचयति तत्र कर्ता कः अस्ति इति अतः अस्तु सम्यक् अस्तु तत्र रमेश महोदय करोति वा अग्रे
भवान् काश्मीरं गत्वा विहारं करोतु भवान् विहारं कर्तुं काश्मीरं गच्छति
काश्मीरम् इति अस्ति तत्र
गच्छति
तावदेव कर्तुम् इति अस्तु सम्यक्
विहारं कर्तुं काश्मीरं गच्छतु और् करोतु
करेक्ट् या करेक्ट् पुनः करोतु सो तत्र प्रार्थना अथवा आज्ञा अस्ति अतः किमपि अन्यत् पश्यन्ति आसम्
विहारं किमर्थं
विहारम् इत्युक्ते तत्र प्रवासार्थे अटनम् अथवा
ओके
किं इङ्ग्लिश् वर्ड् अस्ति चेत् फार् वेकेशन् टूरिसम् इति न किन्तु वेकेशन् विहारम् इत्युक्ते स्पेण्डिङ्ग् टैम् लीजर्लि
तत्र
उद्याने विहारं करोतु इति अस्ति किल उद्याने अथवा किं तत्र रोमिङ्ग् मार्निङ्ग् वाक् ईविनिङ्ग् वाक् तदपि विहारं एव भवति पिक्निक् नास्ति पिक्निक् किन्तु विहारं वाकिङ्ग् स्ट्रोलिङ्ग् अथवा सैट् सीयिङ्ग् वेकेशनिङ्ग् रिलाक्सिङ्ग् इति स्वर्णा भगिनी प्रश्नः अस्ति वा
न भगिनी I was also going to say karotu, gachatu, samyak gachati. Which one will be better? Gachatu, karotu, ityartham, gachatu, na?
Karotu, ha, kartum gachatu. Karotu iti asti, iti krutva, gachatu. तदेव भवति तत्र भवान् काश्मीरं गत्वा विहारं करोतु इति अपि तत्र प्रार्थना अथवा आज्ञा अस्ति अतः तत्र विहारं कर्तुं भवान् काश्मीरं गच्छतु इति एव भवति सम्यक् ऐ एम् हेपी दट् आल् आफ् यु आर् करेक्टिङ्ग् दीस् अण्ड् करेक्टिङ्ग् मी नौ
न न ऐ वास् आल्सो क्वश्चनिङ्ग् गच्छति आर् गच्छतु विच् विल् बि करेक्ट् दट्स् आल्
No, no, no. I'm not just telling you, Bhagini. I'm telling everyone that they're all doing good. Iti. Astu.
If the sentence is in lot lakara, when you convert it, it should be in lot lakara.
Satyam Mohdaya. Astu. Antimam ekam vakyam asti tatra. Astu. वर्षा भगिनी करोति वा नास्ति वा पुनः न श्रूयते भगिनी अद्य किमर्थं न जानामि इति भवति तुलसि भगिनी करोतु भगिनी अग्रे
आं भगिनि सः लेखं लिखित्वा पत्रिकासु प्रकाशयति He writes the essay to publish in a magazine. Sah lekham prakashyatum sah patrikasu prakashayatum lekham likhati
ha प्रकाशयितुम् इति भवति तत्र सः पत्रिकासु प्रकाशयितुं लेखं लिखति अत्र तत्र पत्रिकासु इति वदतु भगिनि विभक्तिकः विभक्तिः का हा सप्तमी अपि च
बहुवचन
बहुवचने बहुवचने तत्र पत्रिका इत्यस्य लिङ्गं किं तुलसी भगिनी
स्त्रीलिङ्गं
स्त्रीलिङ्गं लता लतावत् लतासु इति भवति किल लतायाः लतयोः लतासु इति प्रकाशयति इत्युक्ते पब्लिकेशन् इति अस्तु तत्र तावदेव तस्य कृते तुमुन् प्रत्ययस्य कृते सर्वे सम्यक्तया अवगतवन्तः इति मया दृष्टं हा बहु समीचीनं बहु समीचीनं
धन्यवादः
ऐ एम् हेपी टु हियर् देट् प्रश्नाः सन्ति चेत् पृच्छन्तु किन्तु अदर्वैस् यु आल् नो हौ टु डु इट् सो अवगच्छन्ति अपि च प्रयोगाः अपि सम्यक्तया कृतवन्तः तर्हि अग्रे गन्तुं शक्नुमः तत्र एतत् सम्भाषणमपि अस्ति किन्तु पूर्वस्मिन् वर्गस्य कथा अपि अस्ति तत्र किं कथां कथायां प्रति गच्छामः अधुना तत्र किं कुर्मः ये न पदच्छेदम् अपि व्याकरणं न कृतवन्तः ये न कृतवन्तः ते पठितुं शक्नुवन्ति अद्य सो ऐल् आस्क् आल् आफ् यू अट्लीस्ट् ऐल् ट्रै टु आस्क् मोस्ट् आफ् यू सो किं कुर्मः तत्र त्रीणि वाक्यानि पठामः पठित्वा पदच्छेदं कृत्वा व्याकरणं ज्ञास्यामः तर्हि अत्र बृन्दभगिनी आरम्भं करोति वा
आं भगिनि शिशा नास्ति मायादर्पणम्
शीर्ष मायादर्पणः मायादर्पणः मैजिकल मिरर अर्जुनस्य पुत्रः अभिमन्युः
तत्र भगिनी बुभुक्षितः च आसीत् तावत्पर्यन्तं पठतु पठतु
बुभुक्षितः ओके अर्जुनस्य षष्टिविभक्ति पुत्रः
अहं पृच्छामि
शुड् ऐ ट्रान्स्लेट् आर् शुड् ऐ जस्ट् से
नो लेट्स् नाट्
यु विल् आस्क् मी क्वेश्चन् ऐ विल् आन्सर्
ऐ विल् आस्क् यु बिकास् आल् आफ़् देम् आर् नाट् नीडेड्
ओके तस्य पत्नी उत्तरा एकदा तयोः गृहं प्रति कश्चित् महर्षिः आगतवान् सः श्रान्तः बुभुक्षितः च आसीत्
तत्र बुभुक्षितः इति किञ्चित् प्रेषितवती वक्तुमिच्छति वा किमस्ति तत्र
बुभुक्षितः
वाट्साप् मध्ये पोस्ट् कृतवती सर्वे पठितवन्तः वा हङ्ग्री इति किन्तु तत्र भोक्तुम् इच्छा इति भवति वाण्टिङ्ग् टु ईट् बुभुक्षितः भोक्तुम् इच्छा बुभुक्षा तदनन्तरं यः भोक्तुम् इच्छति सः बुभुक्षितः इति भवति तादृश मोक्तुम् इच्छा मोक्षा मुमुक्षुः इति भवति तादृशं बहूनि उदाहरणानि सन्ति तत्र ये न दृष्टवन्तः एकवारं पश्यन्तु बहु सम्यक् अस्ति अपि च श्रान्तः इत्युक्ते तत्र वृन्दा भगिनी वदतु अपि च कश्चित् इति अस्ति चेत्
कसम्
सम् अन्नोन् पर्सन् अन्नोन् महर्षिः अनिश्चितार्थे
अनिश्चितार्थे महर्षि
आगतवान् इति जानीमः अस्तु तावदेव तत्र सम्यक् भगिनि अग्रे अत् मञ्जुला भगिनी रीड् द रेस्ट् आफ् द पेराग्राफ्
आं भगिनि धर्मपरायणा उत्तरा तम् आदरेण स्वागति कृतवती तस्य स्नानादिकस्य स्नानादिकस्य व्यवस्थां कृतवती रुचिकरं भोजनं च दत्तवती
किमस्ति तत्र धर्मपरायणा इति अस्ति इत्युक्ते धर्मं पालयति इति तत्र परायणा इति दीर्घ आकारः अस्ति किमर्थं तत्र उत्तरा इति तत्र किं भवति धर्मपरायणा उत्तरा इति द्वे पदे
विशेषणं
तत्र एकं कुर्मः यः वदति गिव् देम् ए चान्स् टु डू दिस् सो तत्र मञ्जुला भगिनी वदतु पराय उत्तरा परा धर्मपरायणा उत्तरा इत्युक्ते तत्र विशेष्यं किं विशेषणं किं
धर्मपरायण विशेषण उत्तरायाः
उत्तरायाः विशेषणं कीदृशी उत्तरा इत्युक्ते धर्मपरायणा उत्तरा कीदृशी इति पठितवन्तः पूर्वस्मिन् वर्गे तत्र तादृशं भवितुम् अर्हति अपि च स्वागती कृतवती तत्र जानीमः स्वागतं कृतवती इति समस्तपदम् अभवत् तत्र आदरेण इत्युक्ते
वित् ग्राटिट्यूड्
आदरसहित तत्र विभक्ति किं
षष्टिविभक्ति
न
रामेण
रामेण विभक्तिः किं तत्र तृतीय
षष्टि
न भवति तत्र किल तत्र षष्टि भवति चेत् अर्थः भिन्नः भवति आदरेण वित् रेस्पेक्ट् इति भवनीयं तत्र अतः तत्र तृतीया अपि च स्नानादिकस्य इत्युक्ते
स्नानादिकस्य टु टेक् बात् फेसिलिटीस् टु टेक् बात्
हा अण्ड् अदर् मार्निङ्ग् रुटीन् इति अपि स्नानादिकस्य इत्युक्ते स्नानम् अपि च किमपि मार्निङ्ग् रुटीन् अस्ति इति तस्य षष्टिविभक्ति व्यवस्था हा तत्र व्यवस्था इत्युक्ते
अरेञ्ज्मेण्ट्
हा अरेञ्ज्मेण्ट् अरेञ्ज्मेण्ट् आर्गनैस्ड् इति आर्गनैस् कृतवती अपि च रुचिकरं हा
भोजनं
दत्तवती तत्र च इति प्रयोगः अस्ति किमर्थम्
शी इस् डूइङ्ग् टु वर्क्स् अट् अ टैम् भोजनं च स्नानादिकं
व्यवस्थां च सम्यक् व्यवस्थाम् अपि च व्यवस्थां कृतवती अपि च भोजनमपि दत्तवती इति कृत्वा च इति अस्ति तत्र अस्तु सम्यक् भगिनि मृदुला भगिनी करोति वा अग्रे
आं महोदय
भगिनि हियर् द वर्ड् व्यवस्था मीन्स् अरेञ्ज्मेण्ट् ओके
अरेञ्ज्मेण्ट् इति भवति तत्र किल तस्य स्नानादिकस्य अरेञ्ज्मेण्ट् कृतवती इति
प्रोवैड् फेसिलिटीस्
इन् दट् अर्थ प्रोवैड् आर्गनैज् किमपि तत्र अर्थाः भिन्नाः भवन्ति डिपेण्डिङ्ग् आन् द सेण्टेन्स् अतः मृदुला भगिनि
करोमि
तत्र
तस्याः
च इति तत्र एकक्षणं भगिनि कुत्र इत्युक्ते अस्तु पठतु एकवारं वदामि
तस्याः अतिथिसत्कारेण सः महर्षिः अत्यन्तं सन्तुष्टः अभवत्
च पर्यन्तं पठतु भगिनि
सः उत्तरायै अर्थमपि अहं
प्रथमं पठतु अनन्तरं पृच्छामि
सः उत्तरायै उपायनरूपेण एकं दर्पणं दत्तवान् ताम् उक्तवान् च
तावत्पर्यन्तं वदतु तत्र अतिथिसत्कारेण पुनः विभक्ति किं तत्र
तृतीया विभक्ति अतिथिसत्कारः अथवा सत्कारं
सत्कारः इति मन्ये द्रष्टव्यं सत्कारः इति मन्ये
तृतीया एकवचनं सन्तुष्टः सन्तुष्ट इत्युक्ते अर्थं विभक्ति अर्थः प्लीज़्ड् सेटिस्फाइड्
यः सन्तोषम् अनुभवति सः सन्तुष्टः तस्मिन् सन्तोषः अस्ति अधुना सन्तुष्टः अभवत् इति वदति वा
भूधातु लङ्लकार
लङ्लकार
प्रथम अभवत् प्रथम पुरुष एकवचनम्
एकवचनं बहु सम्यक् अग्रे उत्तरायै तत्र विभक्ति किं
न चतुर्थी
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 उपायनम् इत्युक्ते उपायनं
गिफ्ट् गिफ्ट् गिफ्ट्
तत्र पुनः तृतीया
रूपेण तृतीया
तत्र एकं दर्पणं किमस्ति तत्र एकं दर्पणम्
एकं दर्पणं विशेषणविशेषसम्बन्धः
कीदृशम् इति भवितुम् अर्हति तत्र एकं
विशेषणं
दत्तवान् अपि च दत्तवान् इति
तां द्वितीया एकवचनं
कस्य
सा
किन्तु तत्र कस्य
उत्तरा उत्तरा उत्तरां उक्तवान् उत्तरम् उक्तवान् महर्षिः उत्तरम् उक्तो
बहु सम्यक् ताम् उत्तराम् उक्तवान् अथवा उत्तरा इति पूर्वमेव उक्तम् अतः तत्र ताम् इति दत्तं ताम् उक्तवान् इति सम्यक् भगिनि अपि च
धन्यवादः.
हा तत्र एकं करोतु, अस्ति रीड् वन् मोर् सेण्टेन्स् देर् तत्र वत्से इति अस्ति किल.
अहमपि पठामि. अहमपि पठामि. मृदुला मृदुला
भवती एव रीड् द नेक्स्ट् वन् सेण्टेन्स्.
वत्से एषः विशिष्टः दर्पणः अस्ति.
किमस्ति तत्र
वत्से इत्युक्ते सम्बोधनम् अस्ति. एषः विशिष्टः दर्पणः अस्ति.
दिस् इस् स्पेशल् मिरर्.
हा अतः तत्र पुनः विशेषे विशेषणं भवति. दर्पणः कीदृशः दर्पणः?
विशिष्टः.
विशिष्टः दर्पणः अस्ति. अस्तु सम्यक्. अस्तु तत्र सुवर्णा भगिनी पठति वा अग्रे?
धन्यवादः.
पठामि भगिनि. एतस्य विशेषः एषः अस्ति यत् यः भवतीं सर्वदा स्मरति तस्य मुखम् एव अत्र दर्पणे दृश्यते इति. उत्तरा भक्त्या महर्षिं नमस्कृतवती. सः ताम् आशिषा अनुगृह्य ततः गतवान्.
वदतु भगिनि, एतस्य विशेषः इति आरभ्य.
एतस्य विशेषः
अस्ति यत् भवतीं सर्वदा स्मरति. तत्र किं भवतीम् इति विभक्ति वदतु भगिनि.
भवती ईकारान्त स्त्रीलिङ्ग द्वितीया विभक्ति एकवचनं भवतीं.
भवतीं
सर्वदा स्मरति. यः भवति, विच् वन् यु थिङ्क् रैट्? यः भवतीं सर्वदा स्मरति.
किं तत्र अर्थः कः?
यत् यत्किञ्चित् सा स्मरति. भवतीं सर्वदा स्मरति.
यः कोऽपि भवतीं सर्वदा स्मरति. Whoever thinks of you all the time, remembers
तस्य मुखं. तस्य मुखम् एव अत्र दर्पणे दृश्यते. तत्पुरुषस्य महिला तस्य मुखम् एव अत्र दर्पणे दृश्यते.
इति अपि च तत्र भक्त्या इति अस्ति. तत्र वदतु
कुत्र?
उत्तरा अग्रिमे अग्रिमे वाक्ये
उत्तरा
भक्त्या इति पदं पदं किम्? अपि च विभक्ति भक्ति का?
भक्ति तृतीया विभक्ति भक्त्या.
भक्ति
महर्षिं अत्र भक्त्या महर्षिं द्वितीया विभक्ति नमस्कृतवती. मतलब उत्तरा नमस्कृतवती तं महर्षिं भक्तेन भक्त्या.
अग्रे
सः ताम् आशिषाम् अनुगृह्य ततः गतवान्. सः ऋषिः ताम् उत्तराम् आशिषाम्
आशिषां नास्ति, आशिषा एव अस्ति. तत्र आशिषा इत्युक्ते अन्यत् एकं पदम् अस्ति तादृशम् आशीर्वादे इति किल. अत्र आशिष इति धातुः क्षणतां प्रातिपदिकम् आशिषा इत्युक्ते आशीर्वादम् एव. अनुगृह्य किम् अनुगृह्य?
आशिषा अनुगृह्य आशिषा कर्मपदम् अस्ति वा
तत्र? भवति इति मन्ये. किमर्थं चेत् तत्र लेपपि त्वा कर्मपदं स्वीकृतः अतः तत्र आशिषा इति कर्मपदं भवितुम् अर्हति. ताम् आशिषा अनुगृह्य इति
ततः गतवान्. अनुगृह्य गृहि उपसर्ग अनु गृह अनुगृह्य अर्थात् दातुं रैट् दत्त्वा इति अर्थमस्ति वा अनुगृह्य
ग्रह इति ग्रहणे किन्तु अनु इति उपसर्गस्य योजनेन अर्थः किञ्चित् भिन्नः भवति गिविङ्ग् इति भवति तत्र अनुगृह्य भगवान् अनुग्रहणं करोति इति भवति किल तत्र अनुग्रहणं करोति अथवा अधुना दृष्टवन्तः गृहीतवान् इति गृहीतवान् इति अपि भवति तत्र सो गिविङ्ग् इति अनुग्रहीतवान् इत्युक्ते आशीर्वादं दत्तवान्
ग्रह एकम् अस्ति चेत् टु रिसीव्
हा तत्र ग्रहणे भवति रिसीव् टु होल्ड् इति ग्रहणे रिसीव् इति अपेक्षया
होल्ड्
ग्रहणे इति
अनुगृह्य अतः ब्लेस्ड् अत्र
गिविङ्ग्
गिविङ्ग्
इति अर्थे भवति
ततः पञ्चमी विभक्ति ततः
ततः इति पञ्चमी विभक्ति सम्यक् उक्तवती पञ्चमी विभक्ति इव भवति ततः इति पदं फ्रम् देर् ततः गतवान् अस्तु तत्र तावदेव अस्ति गतवान् सम्यक् भगिनि
धन्यवादः भगिनि
हा धन्यवादः अग्रे तत्व महोदय प्रयत्नं करोति वा त्रीणि वाक्यानि
अनन्तरम् उत्तर दार्पाणं दृष्टावती डु ऐ कण्टिन्यू
हा कण्टिन्यू अप् टु दृश्यते स्म
तदा तस्याः हर्षस्य सीमा एव न आसीत् यतः तत्र तस्याः भयोः
पत्युः
पत्युः अभिमन्योः मुखं दृश्यते स्म
तावत् वदतु महोदय तत्र अनन्तरम् उत्तरा कुतूहलेन इत्युक्ते किम्
ऐ डोण्ट् नो मोस्ट् आफ् द
ओ अस्तु अस्तु तत्र वुड् यु लैक् टु से वाट् meaning you got out of this much astu tatra kim asti ityukte anantaram means
then
afterwards uttara kutuhalaha ityukte tatra curiosity iti bhavati with kutuhalena tritiya vibhakti curiosity with curiosity
mirror
ha
Drishtavati saw in the mirror.
Ha, she looked into the mirror, adhuna. Kutuhalena. Tada, tasyaha harshasya ityukte?
Tada, tasyaha, tasyaha genitive shasti vibhakti.
Shasti vibhakti, harshasya api?
तस्याः सो अफर् हासस्य ऐ डोण्ट् नो व्हाट् इस् हासस्य
हर्षः अपि सन्तोषः इति एव इति अर्थे हर्षः इति अन्यत् पदं पर्यायवाचकपदं हर्षस्य अपि षष्ठिविभक्ति सो हर्सन्तोषः तस्य सीमा एव न आसीत् सीमा इत्युक्ते बौण्डरि इति सीमा इत्युक्ते So boundless joy iti. When she saw whatever she saw, we are going to see what she saw, but when she saw what was in the mirror, there was no boundary to her joy. So then yataha tatra tasyaha patyuhu. Patyuhu ityukte
patyuhu, I don't know what is patyuhu.
Patihi ityasya shashti vibhakti.
Oh, patihi like father?
No, no. Patihi ityukte husband.
A husband, okay.
Pita ityukte father, tatra pituhu iti bhavati. Patyuhu ityukte shashti vibhakti tatra. Her husband. Yataha ityukte kim? Yataha? Because,
okay.
Ataha ityukte therefore, yataha ityukte because tatra tasyaha patyuhu, her husband's abhimanyoho tatra vishesha visheshanam. Abhimanyoho kidrushaha patyuhu abhimanyoho mukham. Mukham ityukte janati kila?
Saw her face.
Drushyate.
Ityukte? Saw.
Drushyate ityukte taya drushyate. Tatra it's a different prayoga. Pashyati iti asti, kintu tatra drushyate means it was seen by her iti.
Okay.
Uttaraya drushyate. Sma.
What's the meaning of Abhimanyoho?
Name. It's her husband's name.
Oh, okay.
Arjunasya putraha Abhimanyuho. Yadi bhavan janati, Arjunaha iti janati kila. Tasya putraha Abhimanyuho. Tasya patni uttara. So she saw her husband's face, so she is unbounded joy because she is supposed to see the face of a person who is always thinking of her.
Okay.
That's why tasya harshasya sima eva na asit iti. Samyak mohodaya. Tavat paryantam. Tatra agre astu. Ke story pratamam kopi na patitavantah te pathe yuhu.
What is the meaning of
purvasmin?
Tada means from that. Tada tasya.
Then. Yada tada iti bhavati.
Okay. Yada tada.
Then iti bhavati.
Okay. Thank you.
Astu tatra Uma bhagini asti chet patati va?
Aap bhagini.
Sa
ashcharyam anandam cha anubhutavati. तस्मिन् एव समये भगवान् श्रीकृष्णः तत्र आगतः उत्तरा उत्साहेन दर्पणस्य विषयं श्रीकृष्णम् उक्तवती दर्पणं च दर्शितवती.
किमस्ति भगिनी तत्र? आश्चर्यम् आनन्दं च अनुभूतवती. एकवारम् अर्थः कः इति वदतु. Whatever you have read, Saramsha. Tatra bahu dhvani hi asti bhagini bhavatyaha duravanyam.
Atra eka bala asti bhagini.
Astu.
I'm not able to control, she's a very small child.
Astu. Nantaram pruchami. Samyak va?
Aam bhagini.
Astu. Dhanyavada bhagini. Astu. Tatra Varsha Bhagini patati va?
Aam Bhagini, can you hear me? Shruyate Bhagini?
Aduna Shruyate, Aduna Shruyate.
Sa aashcharyam anandam cha anubhutavati. She experiences joy and
एकक्षणं तत्र तव तु प्रत्ययः भूतवती अनुभूतवती इति अग्रे वदतु.
तस्मिन् एव समये भगवान् श्रीकृष्णः तत्र आगतः So at that time only, Bhagavan Shri Krishna comes there, came there.
Ha, agataha iti. Kriyapadam nasti. No. Tatra kriyapadam eva nasti tatra. Ta iti anyat pratyaya asti. Tasya tadrushah rupah bhavati. Agataha, agata, agatam iti.
So, how do you translate that, Bhagini?
Tadeva, yad bhavati uktavati, he came there iti eva. Bhinnasya padasya prayogaha, kintu tadeva artaha. He came there iti. Tatra agachati, instead of saying that, it is agataha.
Agree? Astu Bhagini. Uttara utsahena darpanasya vishayam Shri Krishnam uktavati. So utsahena is with a lot of enthusiasm. She tells Shri Krishna about the speciality of the mirror. Darpanasya is the shashti vibhakti of the mirror. Vishayam is the speciality.
Vishayam is because vishesha visheshanam asti chet. It has to be the same lingam, vachanam, tatsarvam.
What is the importance of the mirror?
What is the matter about the mirror? What the mirror is about? Iti.
Shri Krishnam is the dvitiya vibhakti.
Dvitiya vibhakti tatra.
Uktavati is, she says.
Punaha utsahena iti vibhakti hi?
Shashti vibhakti. Utsahena, tritiya vibhakti.
Tritiya vibhakti.
With enthusiasm.
With enthusiasm iti. Apicha, antimam vakyam?
Darpanam cha darshitavati. And she shows him the mirror.
Cha iti. Yata bhavati uktavati eva, you understand that already. So, because vishayam uktavati apicha darpanam darshitavati ataha cha iti. She told him, then she showed the darpanam also iti. Astu. Samyak, kinchit agre pathamaha. Okay, so I'm trying to ask those who already read last time are there, and some who did not get to read at all. ये ना पठितवन्तः वदतु.
भगिनी, ऐ डिडन्ट रीड.
अत्र अहं पश्यामि राधा भगिनी ना पठितवती लास्ट टाइम.
गिरिजा ना पठति.
अस्तु
गिरिजा ना पठामि.
गिरिजा भगिनी अपि पठितुं शक्नोति अद्य. अस्तु, राधा भगिनी किञ्चित् पठतु, अनन्तरं गिरिजा भगिनी पठतु. त्रीणि वाक्यानि, द्वे अथवा त्रीणि पठतु.
अहम् अपठत्.
सुरेश भगिनी वा?
I read twice.
I did not read.
अस्तु, न अहं कथायाः विषये वदन्ती अस्मि. अस्तु
मैम्, मै सेण्टेन्स् इस् ओके.
Sentence is good. Astu, atra ekam kurmaha. Ye na patitavantaha, te pateyuhu iti mama iccha asti, kintu adhuna samayaha jataha. So, kim kurmaha? Agrima vargya patamava, can we take 10 more minutes and read?
Yes.
Ma'am, it's already late, ma'am.
Na, ye gantum icchanti, गच्छेयुः. प्लीस् फील् फ्री. ये स्थातुम् इच्छन्ति पठितुं शक्नुवन्ति. सो इफ् यु वुड् लैक् टु स्टे बेक् अण्ड् रीड्, दोस् आफ् यू हू डिन्ट् गेट् ए चान्स्, प्लीस् डू सो. दोस् आफ् यू हू हेव् टु लीव्, प्लीस् फील् फ्री टु डू दट् आल्सो.
ऐ केन् स्टे बेक् भगिनि सुन्दरं हियर्.
अस्तु महोदय. सो those of you who did not read, please stay and read 2-3 sentences.
Okay.
Astu. अस्तु तर्हि हा ऐ विल् आस्क् आल् आफ़् राधा भगिनी करोति वा अधुना ऐ विल् आस्क् भगिनी डेफिनेट्लि
ओके मेम् ऐ विल् डु
अस्तु
तयोः सारि तयोः वार्तालापस्य मे एव सर्वे पाण्डवः पाण्डवाः तत्र आगताः all the pandavas also arrived there
ha iti
sarve pandavaha tatra in that place all of them agataha
vartalapa samaye itite
about that same time
ha samaye itite tasmin samaye vartalapa itite varta alapa tatra charcha iti charcha iti discussion चर्चा इति अन्यत् पदमस्ति तस्मिन् समये त्योः न तयोः इत्युक्ते दोस् टु इति षष्टिविभक्ति सः इति अस्ति किल सः इत्यस्य किं भवति तयोः सो दोस् टु वर् डिस्कसिङ्ग् आल् द पार्ट्
द्विवचनं
द्विवचने
तयोः द्विवचनं
द्विवचने अग्रे
अभिमन्युः अपि आगतवान् अभिमन्यु आल्सो अरैव्ड् देन् अट् दट् टैम्
अग्रे
कृष्णः उत्साहेन तान् सर्वान् अपि दर्पणस्य वृत्तान्तम् उक्तवान्
श्रीकृष्णः
डिटेल् श्रीकृष्णः वित् एन्तुसियासम् एक्स्प्लेन्ड् दर्पणस्य वृत्तान्तम् इन् ही एक्स्प्लेन्ड् इन् डिटेल् अबौट् द मिरर् अपि ही एक्स्प्लेन्ड् अबौट् इट् टु एव्रिबडि
वृत्तान्तम् इत्युक्ते तत्र यत् अभवत् इति
इन् डिटेल्
वृत् इति वर्तते इति इन् डिटेल् इन् डिटेल् इति नास्ति तत्र यत् अभवत् इति रिपोर्ट् इति वृत्तान्तम् इत्युक्ते रिपोर्ट् अथवा टेल् इति तादृशं भवति अपि च किम् अस्ति तत्र सर्वान् अपि तान् सर्वान् सर्वः इति शब्दस्य द्वितीयविभक्ति बहुवचने उक्तवान् अस्तु तावदेव भगिनि सम्यक् अग्रे तत्र गिरिजा भगिनी पठतु अधुना
आं भगिनि दर्पणं दर्शितवान् एतौ कारागारे एव विमुक्त्युत्सवम्
एकक्षणं भगिनि कुत्र पठति दर्पणं दर्शितवान् तदनन्तरम् अन्यस्मिन् पुटे दर्शितवान् अपि इति इदानीं सर्वेषां
अलग् स्टोरि
न न न तदेव कण्टिन्युयेशन् आफ् द स्टोरि अत्र स्क्रीन् मध्ये अस्ति न दृश्यते वा
न दृश्यते
अस्तु
दृश्यते
एकक्षणं
फस्ट् कालम्
अपि इदानीं सर्वेषाम्
अपि
कृष्णस्य स्मरणम् एवं
तत्र इदानीं सर्वेषामपि कुतूहलम् उत्पन्नम् तावत् वदतु भगिनि
इदानीं सर्वेषाम् अपि कुतूहलं क्यूरियोसिटि
तत्र कुतूहलेन इति दृष्टवन्तः अत्र कुतूहलम् इति अस्ति
उत्पन्नं मीन्स् दे डिसैड्
न न न उत्पत्तिः अरोज् इति
रोज्
अरोज् अरोज् इति
अरोज्
सो क्यूरियासिटि अरोज् इन्
क्यूरियासिटि
इदानीं सर्वेषाम् इति विभक्ति वदतु
Sarvesham is second. Dvitiya.
No, no. Sarvesham iti. Shashti Vibhakti Bhavati.
Shashti.
Shashti. Vachanam?
Bahuvachanam.
Bahuvachanam.
Bahuvachanam Bhavati Tatra. Astu. Astu.
Ma'am, Sarvam has become Sarvesham, right?
हा सर्वः इत्यस्य सर्वेषाम् इति
ते दर्पणस्य परीक्षां कर्तुं दृष्टवन्तः
इष्टवन्तः
इष्टवन्तः
तावत्पर्यन्तं वदतु भगिनि परीक्षाम् इति जानाति दर्पणस्य जानाति कर्तुम् इति दृष्टवन्तः तुमुन् प्रत्ययः इष्टवन्तः इत्युक्ते
दे डिसायर्ड् टु टेस्ट् द मिरर्
हा इष्टम् इष्टम् इति इच्छा इति अस्ति इष्टवन्तः इत्युक्ते तेषां
वाण्टेड्
इष्टा अभवत् इष्ट वाण्टेड् टु दे आल् वाण्टेड् टु एक्सामिन् द मिरर्
द मिरर्
तावत्पर्यन्तं अग्रे तत्र देवनाथ महोदय पठति वा गतवान् वा अस्तु एकक्षणं सुन्दरं महोदय न पठितवान् पूर्वस्मिन् वर्गे पठतु महोदय
कर्तुम् इष्टवान् श्रीकृष्णं उक्तवन्तः च श्रीकृष्णम् उक्तवन्तः च भगवन् भवान् दर्पणे पश्यतु इति तेषां सर्वेषाम् अभिप्रायः आसीत् यत् दट् इस् तत्र तत्र निश्चयेन सोरि निश्चयेन स्वमुखानि एव दृश्यन्ते यतः
दृश्यन्ते
यतः वयं सर्वे सर्वदा कृष्णस्य स्मरणम् एव कुर्मः
इति तावत्पर्यन्तं वदतु महोदय तत्र श्रीकृष्णम् उक्तवन्तः इति जानीमः भवान् तत्र भगवन् इति कीदृशं पदं
सम्बोधनविभक्ति
अपि च दर्पणे पश्यतु इति तत्र किमपि नास्ति अभिप्रायः इत्युक्ते
इति अभिप्राय ओपिनियन्
अभिप्रायः एकवारं भवान् एव अर्थः किम् इति वदतु यत् पठितवान् तस्य सम्पूर्णस्य अर्थः कः इति
तेषां सर्वे तेषां all of them sarvesham tesham sarvesham there also it becomes visheshana visheshyam right tesham sarvesham
tesham sarvesham
abhiprayah asit it was their opinion yes that is the yet that is what that tatra nischayena nischayena with certainty the tritiya vibhakti तत्र मीन्स् इन् द मिरर् निश्चयेन स्वमुखानि एव दृश्यन्ते
दृश्यन्ते
सारि स्वमुखे मुखानि हिस् ओन् फेस् मुखानि स्वमुखानि हिस् फेस् एव मुखानि स्वमुखानि मीन्स् आल् आफ़् देर् फेसस् Mukhani.
All of their faces. Bahuvachana asti. So each one thought his face will be seen. So tatra, atha tatra swamukhani iti bahuvachane.
Bahuvachane. Eva, their faces only. So eva drishyante yataha. Yataha, why? Because yat karanam. Vayam sarve, we are all sarvada krishnasya that is Shashti Vibhakti, Krishnasya smaranam eva kurmah. We are only iti. Thinking of him all the time. Therefore, our faces will be seen. Iti. So, they were thinking that way.
Tatra smaranam iti smarati ityasya tatra bhinna rupam ludanta padam tatra lut pratyaha smaranam eva kurmaha tatra ludantam bhavati chet karma padam bhavitum arhati tatra. So krishnasya smaranam iti karma padam bhavati tatra apicha kim asti somukhani janimaha tatra anyat nutana kimapi nasti astu samyak mahodaya. हा धन्यवादः अस्तु अधुना तत्र स्थगयामः वा पुनः अग्रिमवर्गे निश्चयेन समापयामः समयः जातः
मां वाट् इस् द मीनिङ्ग् आफ् दट् पेराग्राफ् ही जस्ट् रेड् ऐ डिन्ट् गेट् इट्
हा तत्र हि रेड् दट् श्रीकृष्णम् उक्तवन्तः के उक्तवन्तः पाण्डवाः पाण्डवाः उक्तवन्तः भगवन् हे भगवन् यु आल्सो लुक् इन् द मिरर् बिकास् दे आर् आल् क्यूरियस् टु सी वाट् कृष्णा इस् गोङ्ग् टु सी इन् द मिरर् बिकास् दे आर् आल् थिङ्किङ्ग् ही इस् डेफिनेट्लि गोङ्ग् टु सी मै फेस् ओन्ली बिकास् ऐ एम् आल्वेस् थिङ्किङ्ग् आफ् हिम् दट् वे दे आल् थाट् आफ् इट् दट्स् वै स्वमुखानि एव दृश्यन्ते केन दृश्यन्ते कृष्णेन दृश्यन्ते सो ही इस् गोङ्ग् टु इट् विल् बि we will be seen by him iti either each one separately or all of them together in the mirror will only be seen by him because who will be thinking more of him than us iti
then
yataha because vayam sarve sarvada krishna
because we are always thinking about him
we are always thinking about him that is why they asked him they forced him to see look in the mirror
okay so this iti is referring to the pandavas
no iti see what is preceding iti quotations so when we see iti that means it is being
somebody
quoted
said
somebody said something
yeah all that inverted commas
it is their thought so it is iti iti vadanena
I understood that part so in before that there is a word cha
sutra
bhagavan before bhagavan bhagavan
ha so that is indicating more than one action there
okay
so what did they say pariksham darpanas pariksham kartum ishtavantah so that is one action they wanted to examine the mirror shri krishnam uktavantah cha so they told him also so okay.
they
that
told
is why
to
cha iti
okay
cha iti comes when you are samuha
adding
to
the action into one
or more two or more iti
bhagini so you don't need that single quote also isn't it bigger iti is there
iti is enough iti is enough in sanskritam there are no quotations there is no comma there is a full stop is there as a line but there is no quotation so but for our convenience they add it
okay
so it is not confusing but when you say iti you know that it's being quoted iti
correct
ha so tatra stagayamaha astu tatra
bhagini ekam that bubukshuh bhavati preshitavati that's very good but what exactly is what type of grammar part is that bubukshuhu bubukshitaha
very advanced that pada nirmanam aham api na janami but just to know it is fyi like it's good to know where the word is
okay.
coming from it means so that is why I sent it
okay because after that patitum is pi patishati pi patisha so I didn't understand anything we'll learn later
I sent it just to look at some familiar ones mumukshuhu jignasuhu I would like to say one yo tatra yuyutsuhu iti api asti iti manye अनन्तरं प्रेषयिष्यामि. फस्ट् श्लोक इन् भगवद्गीता युयुत्सवः अस्ति तत्र तत्र योद्धुं योत्सुम् इच्छा इति भवति किन्तु तत्र इट् इट् इस् इन् द टेबल् सो युयुत्सुः युयुत्सवः इति भवति. सो दिस् वे वी केन् कनेक्ट् in real life, especially in Bhagavad Gita, how these, you know, what these words are, and to know that meaning will make it, you know, that much more enjoyable.
Yuyutsuhu means those who are desirous of, those Pandavas who are
desirous of
fighting
in the battle. Yuddham kartum ichchati.
That table is very good, Bhagini. Very nice. Thank you. Bahut dhanyavada.
हा श्यूर् भगिनी, वाट् एवर् हेल्प्स् ऐ ट्रै टु युर् वे आल् आफ़् यु
भगिनि. 30 सेकेण्ड्स् ऐ वाण्ट् टु टेक् 30 सेकेण्ड्स् जस्ट् फार्
नो नो गो अहेड् महोदय.
फस्ट् आफ़् आल् दिस् क्लास् इस् वेरि इण्ट्रेस्टिङ्ग् भगिनि, थेङ्क् यू वेरि मच. बिकास्
धन्यवादः महोदय.
धन्यवादः, बिकास् इस् वेरि नैस् वे आफ़् लर्निङ्ग् बै रीडिङ्ग् दिस् सेण्टेन्सस्. वेरि नैस्, ऐ वाण्टेड् टु से दट्, दट्स् आल्.
भगिनि बहु बहु सम्यक्, यु आर् वेरि नैस्लि अण्डर्स्टाण्डिङ्ग् एव्रिबडि अण्ड् टीचिङ्ग् वेरि नैस्लि.
Very nice, yes. Very nice. Dhanyavadha. I am glad it's helping.
Thank you very much, Bhagini.
Astu. Atatra Shanti Mantra, Kopi Patitum Nai Chativa. Kopi Patitu.
Dhanyavadha, Bhagini.
I will read it.
Dadanantaram Samapayamaha. Kopi Patitu.
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः. हरिः ओं श्रीगुरुभ्यो नमः. हरिः ओं.
धन्यवादः महोदय. नमस्कारः सर्वेभ्यः. धन्यवादः.
धन्यवादः.